इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। प्रधानमन्त्री भाजपादलस्य वरिष्ठनेता च नरेन्द्रमोदी ह्यः सायंकाले पुडुचेरीनगरे राष्ट्रियजनतान्त्रिकसंयुत्याः प्रत्याशिनां समर्थनाय मार्गप्रदर्शनम् अकरोत्। पञ्चत्रिंशत् निमेषं यावत् प्रचलिता एषा मार्गयात्रा अन्नासलाई इति स्थलं समेत्य अजन्ता सिग्नल जंक्शन इति स्थलात् राजा थिएटर सिग्नल इति स्थलपर्यन्तं 2.1 किलोमीटरमिता परिवेष्टिता। प्रधानमन्त्री सामान्यजनेभ्यः दलस्य कार्यकर्तृभ्यः समर्थकेभ्यश्च अभिवादनं कृत्वा एकस्मिन् मुक्तवाहने यात्राम् अकरोत्। मुख्यमंत्री एन रंगासामी, भाजपा प्रदेशाध्यक्ष वीपी रामलिंगम, गृहमंत्री एम नमस्सिवायम च प्रधानमंत्रिणा सहैव आसन्। महिलाः, बालाः, युवानः च मार्गस्य उभयतः स्थिताः आसन्। अतः परं श्रीमोदी चेन्नई नगरं प्रति प्रस्थितः। मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः, निर्वाचनायुक्तः डॉ सुखबीर सिंह संधुः, डॉ विवेक जोशी च पश्चिम बंगाले निष्पक्ष विधानसभा निर्वाचनं सुनिश्चेतुं पश्चिम बंगालस्य आरक्षक महानिदेशकं, कोलकातायाः आरक्षकायुक्तं च समेत्य नैकान् वरिष्ठाधिकारिणः निर्देशितवन्तः। ते कथितवन्तः यत् मतदातारः भीताः न भवेयुः, निर्वाचनं हिंसामुक्तं, भयात् प्रलोभनात् च मुक्तं भवेदिति। तमिलनाडु राज्ये भाजपा दलेन AIADMK इति दलस्य नेतृत्वे राष्ट्रिय जनतांत्रिक संयुतेः 27 प्रत्याशिनाम् एका सूची प्रकाशिता। अस्याम् सूचौ केन्द्रीय मंत्री डॉ एल मुरुगन, पूर्व राज्यपाल डॉ तमिलिसाई सुंदरराजन, राज्यस्य भाजपा प्रमुख नैनार नागेन्द्रन च सम्मिलिताः सन्ति। कांग्रेस दलेन 28 विधानसभा सनेभ्यः प्रत्याशिनाम घोषणा कृता। सोमवासरे नामांकन समाप्त्यनन्तरं भाजपा कांग्रेस दलयोर्मध्ये विलावनकोड, कोलाचेल, अरथंगी, ऊटी चेत्येभ्यः चतुर्निर्वाचन क्षेत्रेभ्यः स्पर्धा भविष्यति। निर्वाचनायोगेन असम, केरल, पुडुचेरी, तमिलनाडु, पश्चिम बंगालेषु आगामि विधानसभा निर्वाचनाय मतदान दिवसे मतदातृभ्यः सशुल्कावकाशं प्रदातुं सर्वेभ्यः राज्येभ्यः केन्द्रशासित प्रदेशेभ्यश्च निर्देशः प्रदत्तः। आदेशस्य उल्लंघनकर्तृभ्यः नियोक्तृभ्यः दण्डस्य व्यवस्था भविष्यति। भारतर्तु विज्ञान विभागेन अद्य जम्मू कश्मीर, मुजफ्फराबाद, केरल, माहे, लद्दाख चेत्येषु स्थलेषु अतिवृष्ट्याः संभावना प्रकटिता अस्ति। सहैव अद्य दिल्ली, चंडीगढ़, हिमाचल प्रदेश, उत्तराखंड, उत्तर प्रदेश, छत्तीसगढ़, पूर्वी मध्य प्रदेश, पूर्वी राजस्थानेषु विद्युद्योतनादि क्रियाकलापस्य आरंभस्य संभावना प्रकटिता इति। आईपीएल इति क्रिकेट प्रतिस्पर्धायां चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे पंजाब किंग्स दलेन चेन्नई सुपर किंग्स दलं 5-0 पराजितम्। अद्य दिल्ल्याः अरुण जेटली क्रीडांगणे दिल्ली कैपिटल्स दलं मुंबई इंडियंस दलं सम्मुखी करिष्यति। इयं स्पर्धा मध्याह्ने 3:30 प्रारप्स्यते। तत्रैव अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स दलं राजस्थान रॉयल्स दलं सम्मुखी करिष्यति। ध्यानास्पदं वर्तते यत् इयं स्पर्धा सायं 7:30 प्रारप्स्यते इति वार्ताः।